अस्तु भगिनि,
शुक्लां भरदहं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः, गुरुर्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः।
धन्यवादः भगिनी। अग्रे अहं वदामि वा, अन्य कोऽपि वक्तुमिच्छति वा?
अहं वदामि।
वदतु भगिनि।
रामो राजमर्षि सदा विजयति, रामं रमेशं भजे रामेणाधिसता निशाचरचमुः, रामाय तस्मै नमः रामान्नास्ति परायणं परतरम्। रामस्य दासोऽस्म्यहं रामे चित्तलयस्तदा भवतु मे।
उद्धर। सम्यक् अस्तु, अग्रे गच्छामः। अहम् एवं वदामि, रामो राजमणि सदा विजयते रामं रमेशं भजे निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरम्। रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर। अस्तु, परन्तु भवती अपि सम्यक् एव उक्तवती, धन्यवादः भगिनि। अस्तु, इदानीं गीतं न स्थापितवती अत्र, एकनिमिषम्। ओ, अनन्तरमेव गीतम्। अस्तु, एकनिमिषम्, अहं गीतं स्थापयामि। अस्तु, अद्यतन सुभाषितम् एवम् अस्ति। नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः, पुनरेकवारं, नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः, अन्ये बदरिकाकारा बहिरेव मनोहराः, अन्ये बदरिकाकारा भगिर् एव मनोहराः। अत्र नारिकेलस्य सम आकार इत्युक्ते रूपं नारिकेलस्य समानं भवति इत्युक्ते बहिः दृश्यन्ते अपि ते सज्जनाः एव इति, इत्युक्ते बहिः कठिनं भवति परन्तु मध्ये मृदुत्वम् अस्ति, तादृशः सन्ति सज्जनाः इति, सज्जनाः तादृशः अस्ति इति वदति। तादृशः के सन्ति सज्जनाः इत्युक्ते दृश्यन्ते अपि इत्युक्ते बहिः कठिनाः सन्ति परन्तु मध्ये सम्यक् सन्ति, मृदुत्वं मृदु सन्ति. अस्तु, धन्यवादः. अन्ये के सन्ति? अन्ये बदरिका आकार, बदरिका एवम् अस्ति, दृश्यन्ते, मृदुत्वं दृश्यन्ते, मनोहराः सन्ति. मनोहराः इत्युक्ते अस्माकं मनम् अपहरति इत्युक्ते अस्माकं मनं तत्र गच्छति, अट्राक्षन्, तत्र मनोहराः सन्ति. बहु इच्छामः इति वयं चिन्तामः, बहिः तादृश आकाराः सन्ति बदिरिका, परन्तु बहिः एव तादृशम् अस्ति. वयं खादितुं शक्नुमः इति चिन्तयित्वा वयं खादामः, परन्तु न खादितुं शक्नुमः. किमर्थम् इत्युक्ते मृदुत्वं नास्ति, मधुरता नास्ति. अतः सज्जनाः एवम् अस्ति, दुर्जनाः एवम् अस्ति. बहिः सम्यक्तया वदन्ति, परन्तु व्यवहारः सम्यक् नास्ति इति. सज्जनाः नारिकेलेन सदृशाः सन्ति, सो अत्र तृतीया विभक्ति. परन्तु बहिः कठिनाः भवेयुः, भवेयुः इत्युक्ते दे मेबि, बहिः कठिनाः भवेयुः, परन्तु अन्तः मृदवः एव, मृदु, उकारान्तपदं गुरुः, गुरु गुरवः, मृदुः मृदु मृदवः, अन्तः मृदवः एव. अन्तः इति अव्ययम् एव, अपि अव्ययं, परन्तु अपि अव्ययम्. दुर्जनाः तु इति वदामः चेत् परन्तु इति. दुर्जनाः तु बदरिकाफलस्य सदृशाः सन्ति, सदृशाः, अत्रापि षष्टिविभक्तिरूपं भवति. सदृशाः सन्ति इत्युक्ते समानाः, तुल्याः, तादृशपदमपि सम्यक् एव अत्र. नारिकेलेन समाः, तुल्याः, सदृशाः सन्ति. केवलं बहिः मनोहराः सन्ति, परन्तु अन्तः कठिनाः भवन्ति. कठिनाः इत्युक्ते अमधुराः इत्युक्ते अन्य सम्यक् नास्ति इति अर्थे अस्ति. प्रश्नः अस्ति वा
भगिनी? भवेयुः, भवेयुः अर्थम् आशली
अहं, भवेयुः इत्युक्ते प्रायः इति अर्थे, प्रायः, मेबि.
अस्तु
भगिनी, बदरी फल इस् पाय्सनस् फ्रूट्
यलन्दपळम् इति वदामः खलु. बहिः द्रष्टुं सम्यक् अस्ति, परन्तु ओन्लि सम् आर् गुड् इति अर्थे अस्ति.
भगिनी, मम प्रश्न भवेयुः तत्र आशीर्लिङ्ग् अस्तु अस्तु.
आमाम्, आशीर्लिङ्ग् अपि अस्ति, विधिलिङ्ग् अपि अस्ति खलु, विधिलिङ्ग् इति सम्यक् एव. आम्
आम्, धन्यवादः.
सो अत्र विधिलिङ्ग् इति अस्ति चेत् अर्थद्वयं भवति खलु. एकमस्ति तदेव भवन्तः भवेयुः इत्युक्ते यु मस्ट् बी दट् वे इति आशीर्लिङ्ग् इति अस्ति. भवेयुः इति अन्य अर्थः अस्ति, सम्भावना. सम्भावना इत्युक्ते सम्यक्तया न जानीमः, तादृश अर्थः अपि अस्ति. सो अत्र तादृश अर्थः एव अत्र, प्रायः भवेयुः इति. प्रश्नः वा? बदरिका इति एकविध फलं भगिनि, तादृशम् अस्ति फलं, फलं नाट् 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 गूस्बेरि, नो,
इट्स् काल्ड् बेर् इन् हिन्दी भगिनि,
बेर् वा, बेर्, इन् तमिळ् ऐ नो इट् इस् एलन्दपळम्, इन् हिन्दी इट् इस् बेर्, बेर् बेर् फल. अस्तु, धन्यवादः भगिनि. अस्तु, अस्तु अन्तिमवारम् एतत् गायामः किमर्थम् इत्युक्ते अग्रिमवर्गे नूतनगीतम् एकमेकं स्वीकृत्य गायतु मिलित्वा मास्तु इति चिन्तयामि. प्रथमं का गायति ग्रामे नगरे?
अहं गायामि.
गायतु भगिनि, नाम वदतु अनन्तरं गायतु.
मम नाम उर्मिला.
उर्मिला भगिनी गायति. अस्तु.
ग्रामे नगरे समस्त राष्ट्रे रचयेम संस्कृत भवनम्. अहं सम्यक् टोन् न जानामि. इष्टिकां विना मृत्तिकां विना केवल सम्भाषण विद्या संस्कृत सम्भाषण कलया. ग्रामे नगरे समस्त राष्ट्रे रचयेम संस्कृत भवनम्.
रचयेम संस्कृत भवनम्. इट् गोस् अ लिटिल् बिट् हायर्, तावदेव. ओन्लि दट् मच्. अस्तु अग्रे
शिशुबालानां
का गायति अथवा कः गायति?
उच्चैः गायतु, सम्यक् न शृणोमि.
न न, अन्य कोऽपि गातुम् इच्छति चेत् गायतु. गायतु भगिनि.
शिशुबालानां स्मितमृदुवचने युवयुवतीनां मञ्जुभाषणे
वृद्ध गुरूणां वत्सल हृदये. रचयेम गायतु. रचयेम संस्कृत भवनम्. रचयेम संस्कृत भवनम्. अस्तु तर्हि मिलित्वा एव गायामः. अस्तु.
अरुणोदयतः
दिवानि संस्कृतवचनेन संस्कृत भवनम्. रचये सोदर सोदरि बन्धुरम् वचन ललितं श्रवण मधुरम्. वचन ललितं श्रवण मधुरम्. मूलशिलं सोपानं श्रवणादिविधानम्. सोपानं ग्रामे नगरे अस्तु धन्यवादः. अग्रिमवर्गे नूतनगीतं गायामः. अस्तु अद्यतन कथा अस्ति मूर्खम् उद्दिश्य उपदेशः. गतवर्गे वा ततः पूर्वं वा मूर्खोपदेशः इति दृष्टवन्तः खलु. मूर्खोपदेशः इत्युक्ते मूर्खः उपदेशः वा मूर्खस्य उपदेशः वा इति न जानीमः, परन्तु अत्र विभजनं कृत्वा एव अस्ति. मूर्खम् उद्दिश्य उपदेशः, मूर्खः उपदेशः, मूर्खः उपदेशं न ददाति, मूर्खम् उद्दिश्य ददाति. अस्तु, कोऽपि पठति? अस्तु, प्रथमतः पठामः. जयश्री भगिनी पठति वा प्रथमपङ्क्ति?
कश्चन पर्वतः आसीत्, तत्र बहवः वानराः वसन्ति स्म. कदाचित् हेमन्तसमयः सम्प्राप्तः, सर्वत्र वातावरणे अत्यन्तं शैत्यम् आसीत्. शैत्यम् आसीत्, हिमपतः अपि भवति स्म. एतादृशं दुस्सहं शैत्यं सोढुम् आकाशस्थाः
अशक्ताः, क्षम्यताम्, अशक्ताः,
अशक्ताः वानराः कम्पन्ते स्म.
कम्पन्ते स्म, अस्तु. वदति वा स्वस्य वाक्ये? एकः
एकः पर्वतः
तत्र के वसन्ति स्म?
वानराः तत्र
वसन्ति स्म. कति वानराः?
बहवः वानराः.
वानराः, सम्यक्. कीदृशसमयः तत्र? ग्रीष्मकालः वा हेमन्तकालः वा?
हेमन्त समयः
आसीत्. सम्प्राप्तः इत्युक्ते समीपे आगतः. समीपे आगतः. अत्र अन्य किं भजगोविन्दं तत्र अस्ति खलु, सम्प्राप्ते सन्निहिते काले इत्युक्ते अस्माकं मरणकाले सम्प्राप्ते, तादृशं सम्प्राप्तः हेमन्तका समयः सम्प्राप्तः इत्युक्ते पार्श्वे आगतः. अग्रे वातावरणं कथम्
शैत्यं, वातावरणः शैत्यम् आसीत्.
वातावरणं वृष्टिः भवति वा किं भवति तत्र? हिमपातः भवति, सम्यक्. सो तादृशशैत्यं वानराः सोढुं न शक्तवन्तः, अतः ते कम्पन्ते स्म. कम्पन्ते इति वयं पूर्वं दृष्टवन्तः खलु, शिवरिङ्ग् इति, कम्पन्ते स्म. धन्यवादः. अस्तु, सागरी भगिनी अग्रे पठति वा?
आं भगिनि. एकदा कश्चित् वानरः कुतश्चित् कानिचित् गुञ्जाफलानि आनीतवान्. तानि गुञ्जाफलानि कनसदृशानि आसन्.
एकदा किम् अभवत्?
एकवानरः गुञ्जाफलानि स्वीकृत्य आनीतवान्।
कुतः आनीतवान्?
कुतश्चित्।
कुतश्चित्? कति फलानि आनीतवान्?
कानिचित्।
कानिचित्? कतिचित् कानिचित्। सम्यक्। सः कीदृशानि आसन् तानि फलानि?
अग्निकणसदृशानि।
अग्निकणसदृशान्। अग्निकण इत्युक्ते एतदेव अग्निकणः। वयं एतत् स्थापयामः चेत् अग्निः ज्वलति। सम्यक् सम्यक्। ज्वालनं कर्तुं शक्नुमः वयं। सम्यक्। अस्तु, अवगच्छन्ति खलु सर्वे एतत् पर्यन्तम्?
नो नो भगिनी, प्लीज् से इट् इन् इङ्ग्लिश्।
सो अत्र सागरी भगिनी भवती एव वदतु।
से इट् इन् इङ्ग्लिश् भगिनि।
आमामाम्।
Some monkey from somewhere got some, I don't know what this
gunja phala. I mean we have seen this in India also, right? These kind of, these are actually poisonous fruits.
Okay. He brought it.
Yeah.
And he lit them. I'm not sure about this sentence.
Sadrishani means they looked like the live coals. They looked like the live coals. So the vanaraha thought, let's see what the vanaraha is going to do with it. He thought these are all live coals, so I'm going to make fire. Probably he thought like that. Tani gunja palani agni khana sadrishani asan. They looked like live coals.
Live coals, okay.
Astu. Anya prashna asti va?
No, thank you Bhagini, understood.
Astu. So this was the original picture. Astu. Anya?
Aham adami?
अस्तु, वदतु।
ओके। अतः वानरः चिन्तितवन्तः एतान् अग्निकणान् मध्ये स्थापयित्वा परितः शुष्काणि पर्णानि स्थापयित्वा फुत्कारं कुर्मः चेत् अग्नि उत्पद्यते, तेन वयं शैत्यपीडां दूरीकर्तुं शक्नुमः इति एव चिन्तयित्वा ते गुञ्जाफलानि मध्ये स्थापयित्वा परितः पर्णानि स्थापितवन्तः, फुत्कारं कर्तुम् आरब्धवन्तः, परन्तु महता प्रयत्नेन अपि अग्निः न उत्पन्नः। ओके, अत्र वानराः चिन्तितवन्तः, ते सर्वे थाट्, यु नो, दीस् अग्निकणान् मध्ये स्थापयित्वा dry, you know, leaves and dry leaves, if we will put, you know, on top of it, and if we will blow, you know, air, so agni will utpan.
Samya. So atra tena itikte kin tena vayam shaitya pidam duri kartum shaknumaha.
Tena means agni, अग्निकणकम्, ऐ मीन् गुञ्जाफलानि।
तेन मीन्स् बै डूयिङ्ग् दिस्, बै तेन, तेन तेन इत्युक्ते तेन कार्यं करोति खलु, तेन कार्येण वयं शैत्यपीडाम् इत्युक्ते बाधकं करोति, शैत्यं दूरीकर्तुम् अपाकर्तुम्। सो अत्र कृ धातु अस्ति, कृ धातु स्वीकृत्य अन्यद् धातुं वयं कर्तुं शक्नुमः, दूरीकर्तुम्, अपाकर्तुम्, उष्णीकर्तुं, स्वीकर्तुं, समीकर्तुम्, all those things we can do with kartum. The kriyapadam kri dhatu. With the kri dhatu we can do all those things. So atra dūrīkartum. It takes to remove apākartum. Chaknumaha iti. Agre vadatu bhagini.
Aini. Usha vara.
Vadatu.
Vilambena agatati.
Swagatam bhagini.
अपाकर्तुं दूरीकर्तुं, दूरी इत्युक्ते दूरः
अस्ति. अपा अपि इतः अन्यत्र इति मार्गे किमपि शिलाखण्डः कोऽपि शिलाखण्डः अस्ति, शिलाखण्डम् अपाकर्तुम् इत्युक्ते मार्गतः अन्यत्र स्थापयामि इति. दूरीकर्तुं दूरे स्थापयामः, अपाकर्तुमपि टु रिमूव् इति अर्थे अपाकर्तुम्. आमां, दट्स् वाट् ऐ एम् सेयिङ्ग्
विद् द वर्ड् बै इट्सेल्फ् अपाकर्तुम्.
सो विद् द कृ धातु दट् इस् द कर्तुम् आर् करोति आर् करोतु, वी केन् पुट् मेनि, वी केन् कम् अप् वित् मेनि क्रियापदम्.
So,
appa is a kriya padam or is it a... No, appa is just a word, like duram, duri. Appa, duri is not a word by itself, like duram. Parantu duri karotu, appa karotu. Svi is not a word by itself. Parantu svi karotu, it becomes a new kriya padam.
So,
appa,
can it be used in any other way, that particular... Or is it only used with kartum?
With kartum.
Okay.
Uttama prashnaha bhagini. I didn't even think like that. Aham chintayitva vadami. I have only seen it here. Like for example, svi. I've never heard svi by itself.
Oh, okay.
Parantu svi kartum I have heard many, many times. Like that. Apa kartum, svi kartum, duri kartum.
Bhagini, atra kartum, tuman ropa asti va?
आमामाम्
अस्तु,
तुमुनेव कर्तुम् अस्तु भगिनि. अग्रे वदतु. एवं चिन्तयित्वा
ते गुञ्जाफलानि मध्ये स्थापयित्वा परितः पर्णानि स्थापितवन्तः.
स्थापितवन्तः अनन्तरं किं कृतवन्तः?
फुत्कारं कर्तुम् आरब्धवन्तः.
अनन्तरं
परन्तु महता प्रयत्नेन अपि अग्निः न उत्पन्नः. महता प्रयत्नेन मीन्स् बहवः प्रयत्नेन,
बृहत् प्रयत्नेन. अत्र महत् इति शब्दः भवत् इति अस्ति चेत् तृतीया विभक्ति कथं भवति? भवता सह अहम् आगच्छामि. भवता एवमेव महता. किमर्थं तृतीया विभक्तिरूपम्?
प्रयत्नेन
इति तृतीया विभक्ति, अतः महता इति विशेषणम्. अस्तु, महता प्रयत्नेन अपि अग्निः न उत्पन्नः, अग्निः न आगच्छति. किमर्थं न आगच्छति? एतानि फलानि एव, अथवा फलानां बीजं प्रायः अग्निकणः नास्ति खलु, अतः एव अग्निः न उत्पन्नः. अस्तु, अग्रे
अग्निकणः, यु मीन् स्पार्क्,
लैक् दिस् अग्निकणः, लैव् कोल्स् इति वदामः खलु, तादृशं.
दिस् इस् नाट् लैव् अग्निकणः.
फलानि एव. परन्तु वानरः चिन्तयति ते अग्निकणः इति. अतः परितः इत्युक्ते अराउण्ड् सर्वासु दिक्षु, वामतः दक्षिणभागे सर्वत्र स्थापयित्वा परितः अग्निकणानि परितः इति सः चिन्तयित्वा फूत्कारं करोति. परन्तु अग्निः न उत्पन्नः. किमर्थं न उत्पन्नः? अग्निकणः एव नास्ति, केवलं फलानि एव, फलानि वा बीजानि वा. अस्तु, अग्रे अग्रे गच्छामः. अग्रे का वक्तुम् इच्छति? सविता भगिनी. अस्तु भगिनि, पठतु.
सूचिमुखः नाम पक्षी एतत् सर्वं पश्यन् आसीत्. वानराणां वृथा प्रयासं दृष्ट्वा सः उक्तवान्, भो मूर्खाः, एते अग्निकणाः न, अपि तु एतानि गुञ्जाफलानि. भवन्तः किमर्थं व्यर्थं श्रमम् अनुभवन्ति? कुत्रापि गुहायं निर्वृत्तप्रदेशः अस्ति वा इति अन्वीयष्यन्तु, तत्र गत्वा तिष्ठन्तु इति. एकः पक्षी एतत् सर्वान् पश्यान् आसीत्. नाम सूचिमुखः. सा वानराणां दृष्ट्वा
एकनिमिषं तस्य नाम
पक्षी नाम सूचिमुखः. वानराणां वृथाप्रयासं दृष्ट्वा सः उक्तवान्, भो मूर्खाः, एते अग्निकणाः न अस्ति, एतानि गुञ्जाफलानि. भवन्तः व्यर्थश्रमम् अनुभवन्ति इति सूचिमुखाः वदति. सः एकम् उपायं वदति. कुत्रापि गुहायं निर्वेतप्रदेशः अस्ति, समीपे गुहम् अस्ति, सः वदति. अस्ति वा? सः वदति, त्वाम् अन्विष्यन्तु, तत्र गत्वा तिष्ठन्तु इति. अपि
वदति. अस्तु, अत्र व्याकरणदृष्ट्या अहं वदामि, पक्षी इति पदं पक्षिन् मूलरूपम् अस्ति, पक्षिन् इति. यथा स्वामिन् योगिन् इति अस्ति खलु, तादृशम्. अतः पक्षी स्वामी एव प्रथमाविभक्तिरूपं भवति. अतः षष्टिविभक्ति पक्षिणः इति भवति. पक्षिणः नाम सूचीमुखः इति. पक्षिणः, स्वामिनः, एता लैक् उदाहरणं भवतः इति अस्ति खलु, तादृशं. वानराणां व्यर्थप्रयास, व्यर्थम् इत्युक्ते फलमेव न भवति. वयं प्रयासम् इत्युक्ते प्रयत्नं कुर्मः, अत्र प्रयत्नेनापि न उत्पन्नः फलमपि न अस्ति. अतः अस्माकं प्रयत्नं व्यर्थः. प्रयत्नं विना न, फलं विना एव भवति इति दृष्ट्वा सः उक्तवान्, भोः, सो अग्निकणः न, एतादृशं. सो अत्रापि व्यर्थ वृथा इति अन्यपदमस्ति व्यर्थ. श्रममपि तादृशमेव, श्रमं मास्तु. श्रमम् इत्युक्ते
एफर्ट्.
एफर्ट् प्रयासं प्रयत्नं श्रमं तादृशं समान अर्थकपदं समं प्रयत्नं प्रयासं यत्तं वृथा एतादृशं किमर्थम् अनुभवन्ति कुत्रापि गुहा गुहा अस्ति गुहायां गुहायाम् इति किं विभक्तिका गुहायां सप्तमी एकवचन गुहायां निर्वातप्रदेश वात इत्युक्ते वायुः खलु वात निर्वातप्रदेशः यत्र वायुः न वाति इत्युक्ते शैत्यं न भवति तत्र तादृशप्रदेशम् अस्ति वा इति अन्वेषणं करोतु तत्र गत्वा तिष्ठतु किमर्थं वृथा प्रयत्नं कुर्वन्ति भवन्तः अस्तु अग्रे का अथवा कः पठितुमिच्छति
अहं पठामि वा
पठतु भगिनि
परन्तु
न तेषु एकः
वृद्धः वानरः आसीत् सः सूचीमुखम् उक्तवान् अरे मूर्ख किं करणीयं किं न करणीयम् इति वयं सम्यक् जानीमः भवतः उपदेशः न अपेक्षितः मौनेन इतः गच्छतु इति तेषु एकः वृद्धः वानरः आसीत् तेषु इत्युक्ते तेषु सप्तमी विभक्ति
सप्तमी बहुवचन इत्युक्ते वानरेषु एकः वृद्धवानरः अमङ्ग
सः सूचीमुखम् उक्तवान् सूचीमुखम् इत्युक्ते न जानामि
सूचीमुखः नाम पक्षी खलु पक्षीम् उक्तवान् पक्षिणम् उक्तवान्
ओ ओके ओके सूचीमुखं दर्श कर्मपदम् ओके अरे मूर्ख किं करणीयं किं न करणीयम् इति वयं सम्यक् जानीमः वि शुड् नो
वि नो वि नो
ओ वि नो नाट् वि शुड् वि नो
वि नो
भवतः उपदेशः न अपेक्षितः भवतः चतुर्थी
षष्टि भवतः नाम किम्
ओके भवतः उपदेशः न अपेक्षितः आवश्यकम्
अपेक्षितः इत्युक्ते नाट् नेसेसरि न आवश्यकः
ओके अपेक्षितः अपेक्षितः इस् अ कन्फ्यूसिङ्ग् वर्ड् फर् मी
इट्स् ओके आवश्यकः इति आवश्यकः इति स्वीकरोतु अस्तु
भवतः उपदेश मीन्स् हितवचनम् ओके न अपेक्षितः मौनेन इतः गच्छतु go from here
be silent get up like maunena itah gachyato na avashyakah bhavatah vachanam bhavatah upadesham na icchami na icchamah iti astu agre anya
vriddha
vanarah vriddha vanarah
suchi mukham uttava
सो अत्र पश्यतु चित्रं पश्यतु वृद्धवानरः अस्ति सूचीमुखं वदति मौनेन इतः गच्छतु इति अस्तु अग्रे का पठति
ओल्ड् मङ्की टाकिङ्ग् टु द बर्ड्
आम्
एण्ड् इट् इस् टेलिङ्ग् दट् वी डोण्ट् ऐ डोण्ट् नीड् योर् ओपिनियन्
ऐ डोण्ट् नीड् योर् अड्वैस् आम्
हि इस् टेलिङ्ग् दि बर्ड्
आम्
ओके
किमर्थम् इत्युक्ते कुत्रापि गुहां गत्वा तिष्ठतु तानि फलानि एव इति अस्तु भगिनि पठतु भगिनि
परन्तु शुचिमुखः तस्य वाक्यम् अनाद्रत्य पुनः किमर्थं वृथाश्रमम् अनुभवन्ति भवन्तः इति वक्तुम् आरब्धवान् वानरः वदति शुचिमुखः तद् वाक्यं तस्य वाक्यम् उपेक्ष्य अर्थम् उदासीनं कृत्वा पुनः किमर्थं वृथासमं समं श्रमम् अनुभवन्ति भवन्तः इति वानरः वक्तुम् आरब्धवान्.
पक्षी वक्तुम् आरब्धवान्.
पक्षी
वदति किमर्थं समं भवति इति पुनः आरब्धवान् सः. अस्तु, अग्रे अपि पठति वा अन्य कोऽपि पठितुम् इच्छति वा?
अहं पठामि.
पठतु भगिनि. धन्यवादः.
सुखी मुखस्य उपदेशेन कुपितः कश्चन वानरः तं पक्षयोः गृहीत्वा शिलातले घटितवान्. तेन घट्टेन सुखी मुखः मृतः. ओहो. सो सुखी मुखस्य उपदेशेन कुपितः कश्चन वानरः तं पक्षयोः गृहीत्वा शिलातले घटितवान्. तेन घट्टनेन शुचिमुखः मृतः. सो एकवानरः सुखीमुखं कुपित भवन् शिलाखण्डे घटितवान्. अतः शुचिमुखः मृतः.
अस्तु. सो अत्र पक्षयोः इति वामपक्षं दक्षिणपक्षं द्वौ अपि गृहीत्वा शिला अस्ति शिलातले पातितवान् अवपातितवान् घटितवान् इत्युक्ते घटनेन सूचीमुखः मृतः. अतः कथायाः नीतिः का?
क्षम्यतां भगिनि. उपदेशः अस्मात् विनाशाय एव भवति.
मूर्खम् उद्दिश्य
अत्र अर्थं यदा मूर्खम् उपदेशं करोति तदा विनाशं भवति. सम्यक् एव.
गतवान् पक्षी पुनः पुनः उपदेशं करोति. सो अत्र मूर्खः कः? एव मूर्खः. परन्तु तादृशमूर्खम् उद्दिश्य उपदेशं कुर्मः चेत् अस्माकमेव विनाशं. म्यूट् मध्ये गच्छन्तु कृपया. अस्तु, अग्रे वयं तत्र गच्छामः.
पुनः वदतु.
सो मूर्खम् उद्दिश्य उपदेशः इत्युक्ते पक्षी मूर्खम् उद्दिश्य, वानरः एव मूर्खः, वानरम् उपदेशं करोति, वानरम् उद्दिश्य उपदेशं करोति, तत्र गच्छतु, गुहा अस्ति चेत् तत्र गच्छतु इति उपदेशं करोति. परन्तु मूर्खः वानरः तम् उपदेशं न स्वीकर्तुम् इच्छति. सः वदति अहं भवन्तं मारयामि इति. तादृशमेव मारितवान् पक्षी. अतः एव मूर्खम् उद्दिश्य उपदेशं कुर्मः चेत् अस्माकं नाशकालः भवति, आगच्छति इति. अस्माकं विनाशाय एव भवति, विनाशाय कल्पते इति वयं पठितवन्तः खलु, तादृशं विनाशाय कल्पते.
धन्यवादः भगिनि.
उद्दिश्य इस् गुड् एड्वैस्. उद्दिश्य उपदेशः भगिनि.
उद्दिश्य मीन्स् टुवर्ड्स्, मेण्ट् फार् देम् इति. उपदेशः
उद्दिश्य इस् अ लेबन् रूप्,
सम्थिङ्ग् लैक् दट्. उद्दिश्य बट् इट् इस् लैक् अव्ययं भगिनि.
अव्ययम्. अस्तु, धन्यवादः.
मूर्खम् उद्दिश्य, मूर्खस्य कृते उपदेशः, तथापि पश्यतु, मूर्खस्य कृते उपदेशः, मूर्खाय उपदेशः अस्माकं विनाशाय भवति. आम् आं भगिनि. न न, अत्र पक्ष इति अस्ति चेत् पार्ट् खलु. वयं कृष्णपक्ष, शुक्लपक्ष इति वदामः खलु, कृष्णपक्ष शुक्लपक्ष इति. मासम् अस्ति चेत्, मासम् अस्ति चेत् कृष्णपक्ष वाम कृष्णपक्ष शुक्लपक्ष इति पक्षद्वयम् अस्ति. सो अत्र पक्षिणः शरीरे अपि वामपक्ष दक्षिणपक्ष, पक्षयोः इति अस्ति चेत् द्विवचनम्. अतः वामदक्षिणपक्षयोः गृहीत्वा इति अहं
अत्र पक्षयोः मीन्स् विङ्ग्स्, रैट्? टु विङ्ग्स्.
विङ्ग्स् विङ्ग्स्
Of the wing.
Yeah. The left wing and the right wing. Paksha.
What is the purpose of putting
the word
sir in
before that?
Does it have any meaning? Sir?
Thumb.
Oh, it is thumb.
No, it is thumb.
There is a dot there, okay.
Kaschana vanaraha thumb pakshayoho grihitva.
Now it makes sense. I didn't see the dot there.
Astu. Astu. Agre. Astu. Gata varge vayam shashti vibhakti rupani drishtavantah kalo. Ekavaram jatiti abhyasam kritva agre gachamah. Harihi asti chet षष्टिविभक्तिरूपं कथं भवति? एकमेकं कुर्मः वा. लता भगिनी, हरिः अस्ति चेत् कथं भवति?
हरिः अस्ति चेत् हरेः एकवचनं, द्विवचनं हर्योः, बहुवचनं हरीनां.
हरीनां, सम्यक्. मङ्गला भगिनी, तरुः अस्ति चेत्? तरुः. मङ्गला नास्ति वा? अस्तु. विष्णुमहोदय.
ओके भगिनी,
अत्र वायोः वायोः वायूनाम् इति अस्ति
तरोः तर्योः तर्वोः
तर्वोः
तरूणां
तरूणां सम्यक् सम्यक् विष्णुमहोदय अस्ति वा झटिति आगच्छन्तु कृपया पितृशब्द
भगिनी इस् देयर् अ रूल् फार् वेन् टु यू से वायुनाम् और् वायुनाम् लैक् तरुणाम् इस् इट् तरुणाम्
तरुणां णकारः भवति रेफा ऋकारः षकारः आगच्छति चेत् न भवति अस्तु विष्णुमह महोदय नास्ति अम्ब वदति वा पितृ
पितृ पितृः पित्रोः पितॄणां
पितॄणां सो अत्र पितुः भवति तुः तुः भ्रातुः पुनः वदतु पितृः
पितुः पित्रोः पितॄणां
पितॄणां सम्यक् गिरिजा भगिनी ऋषिः ऋषेः ऋष्योः गिरिजा भगिनी अस्ति वा अस्तु सविता भगिनी
ऋषेः ऋष्योः ऋषीणां
ऋषीणाम् अस्तु अत्रापि षकारः अस्ति अतः ऋषि राम सम्यक् ऋषीणाम् अस्तु निर्मला भगिनी साधुः साधु साधोः साधोः साधूनाम् अत्र ओकारः आगच्छति ईकारः मूलपदमस्ति चेत् योकारः आगच्छति ऋकारः मूलपदमस्ति चेत् रोकारः आगच्छति तावदेव अस्तु साधोः साधोः साधूनां सम्यक् सम्यक् भगिनि सम्यक् एव सागरी भगिनी दातृ
धातुः धात्रोः धातॄणां
सम्यक् धातॄणां उर्मिला भगिनी यति
यति यतेः यत्योः यतीनां
यतीनां सम्यक् यतीनां सम्यक् धन्यवादः अस्तु अग्रे शोभा भगिनी शत्रु
शत्रु ओके शत्रु अत्र शत्रु शत्रोः शत्रियो
शत्रियोः
शत्रोः शत्रियोः
वकारः आगच्छति शत्रोः
शत्रोः शत्रियोः शत्रूणां
सो अत्र यो न आगच्छति वो वकारः वो शत्रुवो
शत्रोः शत्रोः शत्रूणां
उकारः अस्ति चेत् वकारः वो भवति अस्ति चेत् यो उ अस्ति चेत् वो ऋ अस्ति चेत् रो एवं
धन्यवादः
धन्यवादः विष्णुमहोदय एकनिमिषम् एकनिमिषं स्वागतं सविता भगिनी श्रोतृ
श्रोतृ
सो अत्र अत्र तुः इति अस्ति खलु
आं भगिनि श्रोतुः श्रोत्रोः श्रोतॄणां
सम्यक् श्रोतुः श्रोत्रोः श्रोतॄणां सम्यक् विष्णुमहोदय गिरि गिरिशब्द
गिरि गिरेः गिर्योः गिरीणां
सम्यक् गिरीणां सम्यक् सम्यक् चक्का भगिनि
धन्यवादः
धेनुः
धेनोः
धेनुः न धनुः धनुः
धनुः धन्वोः धनूनां
एकवचनं पुनः वदतु भगिनि अत्र पश्यतु
धेनुः
धेनोः
धेनोः धेन्वोः धेनूनां
परन्तु धेनु न धनुः अहं दोषं कृतवती पुनः वदतु
धनोः धन्वोः धनूनां
धनूनां सम्यक्
धनूनां
धनूनां आं भगिनि
ऋकारान्त बहुवचनं that is bratru that will be two like two hooks right
amama I didn't write it properly yeah no this is fine bratru na yes
normally you know ekavachanam there is like one hook so bahuvachanam there will be like two of them right one below the other
amama correct bratru na samyak
astu dhanyavad
astu भ्रातुः भ्रातुः भ्रातॄणां दीर्घं भवति सम्यक् अस्तु विना बेन् अस्ति वा
आम् आम् भगिनि धन्यवादः
धन्यवादः वक्तृ
वक्तृ वक्तुः वक्तृः वक्तॄणां
वक्तॄणां सम्यक् वक्तृ अहम् ऊ इति लिखितवती ऊ न ऋ भवति वक्तृ
वक्तॄणां
अहं समीकरोमि अस्तु धन्यवादः सविता ऐ मीन्
धन्यवादः
पश्यामि अस्तु सम्यक् अस्तु उषा भगिनि सूनु धनुः इव सूनोः सून्वोः सूनूनां सम्यक् अस्तु नो न सूनु एव सूनूना सूनूनाम् अस्तु अस्तु अग्रे गच्छामः अद्य वयं स्त्रीलिङ्गं प्रति गच्छामः सो अत्र स्त्रीलिङ्गम् इति पश्यामः चेत् वयं पुल्लिङ्गं जानीमः चेत् स्त्रीलिङ्गमपि तथा एव भवति हरि अस्ति चेत् हरेः हर्योः हरीणाम् अत्रापि मतेः मत्योः मतीनां परन्तु स्त्रीलिङ्गे अन्यरूपमपि भवति यथा गौर्याः गौरी अस्ति चेत् गौर्याः गौर्योः गौरीणाम् इति भवति अतः मति अस्ति चेत् गौर्याः इव अपि कर्तुं शक्नुमः वयं मत्याः इति पुल्लिङ्गवत् मतेः स्त्रीलिङ्गवत् मत्याः अपि लेखितुं शक्नुमः वयं विकल्पद्वयम् अस्ति रूपद्वयं भवति स्त्रीलिङ्गे ह्रस्व इकार ह्रस्व उकार एव दीर्घ आकार एकमेव रूपम् दीर्घ ईकार एकमेव रूपम् दीर्घ ऊकार अपि एकमेव रूपम् परन्तु ह्रस्व इकार ह्रस्व उकार अस्ति चेत् तत्र विकल्पद्वयमपि अस्ति द्वौ अपि समीचीनमेव मतेः अपि समीचीनं मत्याः अपि समीचीनम् एवमेव धेनु अस्ति चेत् धेनोः गुरोः इव धेनोः अपि समीचीनं वधू इव धेन्वाः अपि समीचीनमेव ऋकारान्तरूपं पुल्लिङ्गवत् एव भवति तादृशमेव पितुः पित्रोः पितॄणां मातुः मात्रोः मातॄणां तादृशमेव भवति भेदः न भवति एव अस्तु अग्रे नपुंसकलिङ्गं कथा भवति नपुंसकलिङ्गे सर्वदा नकारः आगच्छति नव णव एकवचने भवति नः अहम् उक्तवती खलु पक्षिणः इति पक्षि पक्षिन् पक्षिणः एवमेव वारिणः अत्रापि नकारः आगच्छति वारिणोः मधुनः मधुनोः परन्तु ऋकारः समानं धातुः धात्रोः धातॄणाम् इति वारिणः वारिणोः वारीणाम् इति भवति सो अत्र सर्वनामपदं वयं पूर्वमेव जानीमः तत्र नूतनविषयः नास्ति एवं वयं कर्तुं शक्नुमः अस्तु वयं पुस्तकं प्रति गच्छामः वा कुत्र स्मः वयं पुस्तके अस्तु सो वयम् अत्र स्मः दशम अध्याय दशमाध्याये तथा एव अस्ति स्त्रीलिङ्गे मत्याः अपि अस्ति मतेः अपि अस्ति मत्योः मतीनां तनुः तन्वाः अथवा तनोः तन्वोः तनूनां पुल्लिङ्गवत् मतेः पुल्लिङ्गवत् तनोः हरिः हरेः मतेः गुरुः गुरोः इव तनोः एवम् एवं भवति अस्तु वा षष्टिविभक्ति सर्वनामपदं तस्य तस्याः एतस्याः अस्तु कोऽपि पठति वा अस्तु का पठितुम् इच्छति
अहं पठामि
नाम किं भगिनि
मम नाम उर्मिला
उर्मिला भगिनि पठतु
काची महाभारत प्रदर्शिनी माता तां दर्शयन्ति पुत्रं विवृणोति माता एषा महाभारतप्रदर्शिनी एतस्याः दर्शनेन महाभारतं सम्यक् अवगन्तुं शक्यते
अस्तु काचित् अत्र का इति अस्ति किमर्थं का इति अस्ति काचित्
स्त्रीलिङ्गी अस्ति तत्र
प्रदर्शिनी काचित् महाभारतप्रदर्शिनी माता तां दर्शयन्ती पुत्रं विवृणोति दर्शयन्ती इति शत्रुप्रत्ययम् इत्युक्ते तस्मिन्नेव समये अन्यकार्यमपि करोति दर्शयन्ती इति तत्र पश्यतु इति वदति विवृणोति विवरणं करोति तत्र किम् अस्ति सः कः एतादृशं विवरणं करोति दर्शयन्ति तस्मिन्नेव समये कार्यद्वयम् एकमेव समये कुर्मः चेत् तत्र शत्रुप्रत्ययं योजयामः पुल्लिङ्गम् अस्ति चेत् दर्शयन्ती स्त्रीलिङ्गम् क्षम्यतां स्त्रीलिङ्गम् अस्ति चेत् दर्शयन्ती विवृणोति पुल्लिङ्गम् अस्ति चेत् दर्शयन् विवृणोति एवं भवति दर्शयन् इति पुल्लिङ्गे
सम्भाषणम् अस्ति खलु someone else read the part of the boy
आमां निश्चयेन तथा एव भवति भगिनि भवती पठति वा पुत्र अस्तु एकवारम् अहं विवरणं करोमि. एषा महाभारतप्रदर्शिनी. एतस्याः किमर्थं प्रदर्शिनी स्त्रीलिङ्ग. एतस्याः अत्र ए इति अस्ति. एषा ए इति अस्ति चेत् पार्श्वे अस्ति. एतस्याः दर्शनेन दर्शनेन विभक्तिका अत्र दर्शनेन
विभक्ति तृतीया एकवचन
तृतीया एक महाभारतं सम्यक् अवगन्तुं शक्यते. शक्यते इति कर्मणि प्रयोग. शक्यते दर्शनेन शक्यते. केन शक्यते
प्रदर्शनेन
प्रदर्शनेन न अत्र केन शक्यते इति भवता भवता इत्युक्ते पुत्रं पुत्रम् उद्दिश्य वदति सः सा पुत्रेण सो अथवा दर् इस् नो इट् विल् बी इति अर्थे सो तादृशं तादृशमेव भवति कर्मणि प्रयोगे पेसिव् वाय्स् इति वदामः. अत्र एव शक्यते इति भवति. अस्तु सागरी भगिनी पठति वा.
एतस्य नाम किम्
माता.
एतस्य नाम धृतराष्ट्रः.
सो अत्र एतस्य पुल्लिङ्ग. एतस्य एतस्य सो अत्र केचन जनाः नामः इति तत् दोषाय भवति. नामः न नाम एव. अस्तु अग्रे.
एतस्याः नाम किम्.
एतस्याः नाम गान्धारी. एतयोः पुत्राः एव कौरवाः.
एतयोः एतस्य एतयोः द्विवचनं षष्ठी द्विवचनं पुत्राः एव कौरवाः. पुत्राः बहुवचनं भवति. अस्तु अग्रे.
एतेषां पाण्डवानां च कः सम्बन्धः.
एतेषां रूपं किम्
षष्ठी बहुवचनम्.
षष्ठी बहुवचनम् एतेषाम् एतस्य एतयोः एतेषां पुल्लिङ्ग. पुल्लिङ्ग स्त्रीलिङ्गे कथं भवति. एतस्याः एतयोः
एतासु
एतासां खलु सां षष्ठी विभक्ति एतासु एतासु सप्तमी भवति. एतासां षष्ठी भवति. सो अत्र एतेषाम् इति पुल्लिङ्गे अस्ति खलु. एतेषां शाम् इति पुल्लिङ्ग. साम् इति स्त्रीलिङ्ग. आं वा. आम् अस्तु
भगिनि एकः प्रश्नः अस्ति. तत्र एतेषां तत्र षट्कोणश अत्र
साम् न अहं किम् उक्तवती इत्युक्ते पुल्लिङ्गे शाम् इति अस्ति. स्त्रीलिङ्गे किम् इति प्रश्नं पृष्टवती तावदेव.
या किन्तु सा अत्र आगच्छति ततः सा अस्ति. तत्र ए आगच्छति ततः तेषां
तादृशं नास्ति. तादृशं
नास्ति. अस्तु
एतासाम् इति भवति. तेषां तत्र तादृशं नास्ति. एतेषां पाण्डवानां च कः सम्बन्धः इत्युक्ते कौरवाणां पाण्डवानां च कः सम्बन्धः. अस्तु अग्रे माता.
पाण्डवाः एतेषां दायादाः.
दायादाः दायादाः इत्युक्ते कज़न्स्. तादृश बन्धुसम्बन्धवाचकः दायादाः. अस्तु अग्रे. पुत्रः
एतेषां मध्ये किं प्रवृत्तं
प्रवृत्तं प्रवृत्तम् इत्युक्ते किम् अभवत् तेषाम् एतेषां तेषाम् एतेषां दूरे अस्ति तेषाम् एतेषां पार्श्वे अस्ति मध्ये किं प्रवृद्धं किम् अभवत् अग्रे
महत् युद्धं प्रवृत्तं तदेव महाभारतयुद्धं तत्र कृष्णः पाण्डव पक्षे आसीत्
अस्तु महा अत्र तत् एव इति परन्तु मेलनेन तकारः दकारः अभवत् अतः तदेव इति जातं तदेव महाभारतयुद्धं युद्धम् इति नपुंसकलिङ्गपदम् अतः तत् महत् अत्रापि महत् शब्दः महत् युद्धं प्रवृत्तं महत् युद्धं नपुंसकलिङ्गपदं महत् तत्र कृष्णः पाण्डवपक्ष सो एतदेव अहम् उक्तवती पाण्डवपक्ष कौरवपक्ष इति पक्षम् इत्युक्ते सैड् अत्र पक्षी इति वदामः तत्र विङ्ग्स् अपि तादृशम् अर्थमेव पक्ष अतः एव पक्षी तस्य नाम पक्षी इति पक्षः अस्ति अतः पक्षी अस्तु पुत्रः
कृष्णः मम प्रियः देवः सः तवापि प्रियः किम्
तव अपि प्रियः किं तव अपि तव अपि भवतः अपि प्रियः किं भवतः युष्मद्शब्दस्य षष्टिविभक्तिरूपम् अत्र प्रियः इति अस्ति किमर्थमिति देवः स्त्रीलिङ्ग अस्ति चेत् प्रिया पुस्तकं प्रियम् एवं भवति अवगच्छन्ति खलु सम्भाषणं
मम एक प्रश्नः अस्ति तत् अधिक एव सन्धि किम्
सो अत्र सन्धि इति नास्ति प्रथमं मृदु सन्धि अस्ति अत्र तत् दकारः अभवत् दकारः एव अत्र गुणितक्षरमेव सन्धि न भवति अत्र तकारः दकारः अभवत् द्विजु सन्धि जत्वसन्धि इति वदामः खलु तत् व्यञ्जनसन्धि ओ अन्य किमपि अस्ति अस्तु माता अस्तु
अस्माकं देशे कृष्णः सर्वेषां प्रियः एव अहं तस्य भक्ता
अस्तु अत्र सर्वेषाम् अत्रापि सर्वस्य सर्वयोः सर्वेषाम् अहं तस्य कृष्णस्य भक्ता अस्तु अग्रे अग्रे भगिनि सागरिक भोः कृपया शनैः वदतु अन्य कोऽपि आगच्छति रक्षकः रक्षकः इत्युक्ते प्रदर्शिन्याः रक्षकः युवयोः सम्भाषणेन अन्येषां विघ्नः भवति विघ्नः भवेत् अत्रापि सम्भावना विधिलिङ्गरूपं परन्तु अत्र सम्भावना तथैव भवतु वत्स आवयोः विलम्बः जातः चलतु गच्छाव इति अस्ति अस्तु अत्र अवधेयं पुल्लिङ्गे नपुंसकलिङ्गे च स्त्री एतस्य एतयोः एतेषां स्त्रीलिङ्गे एतस्याः एतयोः एतासाम् इति भवति तद् दूरे अस्ति अतः पुल्लिङ्गे नपुंसकलिङ्गे तस्य तयोः तेषां स्त्रीलिङ्गे तस्याः तयोः तासाम् अस्मत् शब्द त्रिषु लिङ्गेषु अपि मम आवयोः अस्माकं युष्मत् शब्दे तव युवयोः युष्माकम् अस्तु अग्रे बहवः अभ्यासाः सन्ति एकमेकं कुर्मः वयं समयः तु अस्ति एव. प्रथमतः मम आवलिः अस्ति, प्रथमतः आरम्भं कुर्मः. उदाहरणं वसुदेवः देवकिः, देवकी पतिः पत्नी. वसुदेवस्य पत्नी देवकी, देवक्याः पतिः वसुदेवः इति अस्ति. सो अत्र विपरीतदिशि अपि वदामः. जयश्री भगिनी प्रथमं, बलरामः.
बलरामस्य शिष्यः दुर्योधनः. दुर्योधनस्य गुरुः बलरामः.
सम्यक्. लता भगिनी.
हरिः लक्ष्मीः. हरेः पत्नी लक्ष्मीः. लक्ष्म्याः पति हरिः.
लक्ष्म्याः पतिः हरिः. अस्तु. मङ्गला भगिनि.
ऐ विल् पास् भगिनि. Somebody else.
अस्तु अस्तु अस्तु, चिन्ता मास्तु. विष्णुमहोदय.
आम् महोदय. जमदग्नि रेणुका. जमदग्नेः पत्नीः रेणुका.
पत्नी रेणुका.
रेणुकया पतिः जमदग्नि.
रेणुकायाः पतिः जमदग्निः. अस्तु. अम्ब. अभिमन्युः सुभद्रा.
अभिमन्यु.
उत्तम. अभिमन्योः
माता सुभद्रा.
सुभद्रा. अस्तु.
सुभद्रायाः
माः
अभिमन्यु. अभिमन्यु.
सुभद्रायाः माता अभिमन्युः. अस्तु. सम्यक् सम्यक्. गिरिजा भगिनी. आवरणे विद्यमानस्य, विद्यमानस्य इत्युक्ते स्थितस्य, तत्र सन्ति इति. स्थितस्य शब्दस्य षष्टिविभक्तिरूपेण रिक्तस्थानानि पूरयत. उदाहरणं भारतस्य राजधानी देहली इति अस्ति. गिरिजा भगिनी. हस्तिनापुरम्. गिरिजा भगिनी न वदति चेत् सविता भगिनी.
हस्तिनापुरस्य राजा धृतराष्ट्रः.
धृतराष्ट्रः. उत्तमम्. निर्मला भगिनी. उत्तमं. रवेः पुत्रः. रवेः इत्युक्ते, रविः इत्युक्ते सूर्यः खलु. सूर्यः. सूर्यस्य पुत्रः कर्णः. सम्यक्. अस्तु. अग्रे निर्मला भगिनी अभवत्. सागरि भगिनी. वेणुः.
वेणोः ध्वनिः मधुरः.
वेणोः ध्वनिः मधुरः. अस्तु. सम्यक्. उर्मिला भगिनी. मुनिः. अग्रे.
मुनिः मनः प्रशान्तं भवति.
प्रशान्तं भवति. अस्तु. शोभा भगिनी. लता.
लतायाः छाया शीतला भवति.
शीतला भवति. सम्यक्. सविता भगिनी. गुरुः.
अर्जुनस्य गुरुः.
अर्जुनः.
अर्जुनः गुरुणा.
एकवचनमेव. गुरोः. सम्यक्.
गुरोः प्रियः. अर्जुनः गुरोः प्रियः.
गुरोः प्रियः. सम्यक्. चम्पा भगिनी. बुद्धिः.
मनसस्तु परा बुद्धियो बुद्धेः परतस्तु सः.
परतस्तु सः. अस्तु. विनाबेन् विनाबेन् भगिनी.
मातुः स्नेहः अतुलः.
सम्यक्. मातुः स्नेहः अतुलः. उषा. उषा भगिनी.
वस्तु.
वस्तु इति नपुंसकलिङ्गपदम्, अतः नकारः आगच्छति.
वस्तुन्यो.
वस्तु. वस्तुनः.
वस्तुनः
मूल्यम् अधिकम् एकं वस्तु अस्ति वस्तुनः मूल्यम् अधिकम् इति अस्तु सम्यक् अग्रे गच्छामः अत्र पुनः बन्धुवाचकानाम् उपयुज्य लेखनीयं वसुदेवस्य पुत्रः कृष्णः इति अस्ति कुत्र अस्ति वसुदेवः प्रथमं सो एवम् आगच्छामः वसुदेवस्य पुत्रः कृष्णः अस्तु पुनः प्रथम विपरीतदिशि गच्छामः इदानीं उषा भगिनी बलरामः सहोदरः
बलरामस्य सहोदरः
सम्यक् बलरामस्य
सहोदरः कृष्णः
सम्यक् अस्तु विनाबेन् कुचेलः
कुचेलः कुचेलस्य मित्रं कृष्णः
सम्यक् चम्पा भगिनी
मीरायाः स्वामी कृष्णः
सम्यक् सविता भगिनी
देवक्या पुत्रः कृष्णः
सम्यक् देवक्याः पुत्रः कृष्णः अस्तु शोभा भगिनी
कुत्र अस्ति
रुक्मिणी
ओ रुक्मिण्याः पतिः कृष्णः रुक्मिण्याः पतिः कृष्णः
अस्तु सम्यक् उर्मिला भगिनि मथुरा
उर्मिला भगिनी भवती वदति उक्तवती
उक्तवती वा उर्मिला भगिनी
आम् आम् मथुरायाः राजा कृष्णः
सम्यक् सागरी भगिनी अर्जुनः
अर्जुनस्य सारथिः कृष्णः
कृष्णः इदानीं विपरीतदिशिं कर्तुं प्रयत्नं कुर्मः वा कृष्णः वसुदेवः निर्मला भगिनी वसुदेवस्य पुत्रः कृष्णः कृष्णस्य पिता वसुदेवः कृष्णस्य पिता वसुदेवः वसुदेवः अस्तु सविता भगिनी कृष्णः बलरामः
कृष्णस्य सहोदरः बलरामः
सम्यक् कृष्णस्य सहोदरः बलरामः अस्तु गिरिजा भगिनी कृष्णः कुचेलः अस्तु अम्ब कृष्णः कुचेलः
कृष्णस्य मित्रं कुचेलः
उत्तमं कृष्णस्य मित्रं कुचेलः सम्यक् उत्तमं विष्णुमहोदय कृष्णः मीरा अत्र स्वामी अस्ति अतः भक्ता भवति
कृष्णस्य स्वामी मीरा
कृष्णस्य भक्ता भवति खलु भक्ता
भक्ता मीरा
कृष्णस्य भक्ता मीरा सम्यक् मञ्जुला भगिनी कर्तुम् इच्छति वा कृष्णस्य अम्बा अथवा माता वदतु कृष्णस्य मङ्गला भगिनी न अस्तु लता भगिनी तर्हि
कृष्णस्य माता देवकी
सम्यक् कृष्णस्य माता देवकी जयश्री भगिनी पत्नी रुक्मिणी 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 सम्यक् रुक्मिणी अस्तु अभवत् अग्रे गच्छामः अस्तु अस्तु अन्य किमपि अस्ति समयः अपि अस्ति अस्तु एतत् कुर्मः यथोदाहरणं यथा उदाहरणम् अस्ति तथा इति यथोदाहरणं वाक्यानि रचयत हिमालयः गिरिः मेरुः सो कथं वदामः उदाहरणम् अस्ति वा गिरेः नाम हिमालयः गिरेः नाम मेरुः गिरेः नाम हिमालयः गिरेः नाम मेरुः एतत् दिशि वामदिशि दक्षिणदिशि इति हिमालय गिरेः नाम हिमालयः गिरेः नाम मेरुः अस्तु जयश्री भगिनि पत्रिका
पत्रिकायाः नाम सन्देशः
सम्यक्
पत्रिकायाः नाम चन्दमामा
चन्दमामा अस्तु सम्यक् लता भगिनी ब्रह्मवादिनी
ब्रह्मवादिन्याः नाम गार्गी ब्रह्मवादिन्याः नाम मैत्रेयी
सम्यक् विष्णुमहोदय वाद्यं
वाद्यं नाम
विष्णुमहोदय नास्ति चेत् अम्ब अम्ब वदतु
वाद्यं नाम पलवः
वाद्यं वा षष्टिविभक्ति कथं भवति
वाद्यस्य नाम पलवः वाद्यस्य नाम गोमुखः
गोमुखः अस्तु अग्रिमम् अभ्यासं प्रति गच्छामः यतोदाहरणं वाक्यानि रचयत सेने सो अत्र द्विवचनं सेनयोः मध्ये युद्धं भवति अश्नु विष्णुमहोदय
हस्तौ संयोजनेन अञ्जलिः भवति
योः इकार इकार उकार सर् इकार अकार आकार अस्ति चेत् योः
हस्ते संयोजनेन अञ्जलिः भवति
पुनः वदतु महोदय हस्तयोः
हस्तयोः षष्टि विभक्ति हस्तयोः संयोजनेन अञ्जलिः भवति
अञ्जलिः भवति अस्तु गिरिजा भगिनी भगिनी उकार अस्ति चेत् किं भवति भोः भवति वदतु
भगिनी भगिनी गिरिजा भगिनी हेस् सम् नेट्वर्क् इश्यूस् शी इस् नाट् आडिबल्
ओ अस्तु 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 भगिनि सविता भगिनी निमेषद्वयम् अस्ति वयं कुर्मः सविता
आं भगिनि सः गुर्वोः आशीर्वादं प्राप्नोति
सम्यक् गुर्वोः आशीर्वादं प्राप्नोति अत्र अकार इकार अस्ति चेत् योः वकार अस्ति चेत् ऐं सारि उकार अस्ति चेत् वोः वोः इति वोः इति भवति ऋकारान्तपदम् अस्ति चेत् रोः स्मरन्तु अस्तु अग्रे निर्मला भगिनी भ्रात्रोः भ्रात्रौ इति अस्ति सम्यक् अस्तु उत्तमम् अग्रे निर्मला भगिनी निर्मला भगिनी वदतु अभवत् सागरी भगिनी
श्रीकृष्ण सेनयोः मध्ये अर्जुनस्य रथं स्थापयति
सम्यक् कृष्णः सेनयोः मध्ये स्थापयति अस्तु निर्मला भगिनी उक्तवती वा अहं न स्मरामि
नेक्स्ट् वन् भगिनि कवेः सम्मानं कार्यक्रमः अस्ति
कवेः इति एकवचनं द्विवचनं कव्योः इति भवति कव्योः सम्माननकार्यक्रमः अस्ति. सम्यक्. अस्तु, अग्रे उर्मिला भगिनी.
मम भगिन्योः निवासः ग्रामे अस्ति.
ग्रामे अस्ति. शोभा भगिनी, धन्यवादः भगिनी. शोभा, एतत् समाप्य
कौरवाः पिता धृतराष्ट्र कौरवाणां पिता धृतराष्ट्रः
इति
पाण्डवाः
उदाहरणम् अस्ति. अग्रे
पाण्डवाः रक्षकः कृष्णः. पाण्डवानां रक्षकः कृष्णः.
सम्यक्. पाण्डवानां रक्षकः कृष्णः. सम्यक्. सविता भगिनी.
भारतीयाः धर्मः सनातनः. भारतीयानां धर्मः सनातनः.
सम्यक्. बहु सुलभः. षष्ठी बहुवचनं सर्वत्र नाम 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 अथवा नाम भवति. तावदेव सर्वत्र तथा एव भवति. चम्पा भगिनी. अत्र भिन्नरूपं
वयं भाषा संस्कृतम्. अस्माकं भाषा संस्कृतम्.
अस्माकं भाषा शा भवति. शा संस्कृतं. भाषा संस्कृत
भाषा. अस्माकं भाषा संस्कृतम्.
सम्यक्. विना बेन भगिनि.
नदीनां जीवनं परोपकारार्थं.
सम्यक्. नदीनां सर्वत्र नामेव परोपकारार्थमेव नद्यः जीवन्ति. सम्यक्. उषा भगिनि.
भाषाणां जननी संस्कृतं.
सम्यक्. भाषाणां जननी संस्कृतम्. अग्रिमवर्गे इतः आरम्भं कुर्मः. अस्तु, इदानीं समयः अभवत्, वयं समापयामः. शान्तिमन्त्रं वक्तुम् इच्छति वा कोऽपि? वदतु वदतु
भगिनि.
वदतु वदतु कोऽपि वदतु.
सर्वे भवन्तु सुखिनः. सर्वे सन्तु निरामयाः. सर्वे भद्राणि पश्यन्तु. मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.
बहु धन्यवादः.
धन्यवादः भगिनि. भगिनी भवती बहु सम्यक् सम्यक् पाठयति.
ओ एवं वा. धन्यवादः.
धन्यवादः.
बहु सम्यक् पाठयति.
धन्यवादः भगिनि. उर्मिला उक्तवती. चम्पा भगिनी उक्तवती अपि.
धन्यवादः. गिरिजा भगिनी.
अहमपि
धन्यवादः भगिनी. धन्यवादः. स्वागतम्.